Broadcast is now starting. All attendees are in listen-only mode.
Namasarvebhya. Adya Sampuramayanasya Balakandavarge Tritiyaha Chaturthaha Pathaha November Masasya Trayodashaha Dinankaha Lakshmin Tanotu Nitaram Itaranapeksham Anghidvayam Nigamashakishikha Pravalam Hairambamam Buruhadam Varatourya Nignam Vighnadribhedashatadharathurandharannaha Vachannishamya Bhagavan Satunaradasya Pracheta sahpravachasam prathamah kavinam madhyandinayaniyamaya maharshi sevyam punyam avapatamasam tamasam nihantrim tatra kanchana krauncha mithunadekam panchashara viddham apivyadhenanu viddhan nidhyayato vadhanukampasya bhagavato valmikeer vadanaravinda chandomai kashidevan nisazara saraswati manishadapratishtham tvamagamashashvati samaha Yat krauncha mithuna dekam avadheh kama mohitam. Etavat paryantam gatavarge adhitam. Champuramayanasya mangala shlokaha jnataha. Tatra prastavarupena bhojena kathitani vachanani apidrishtani. Tataha katham arabhate bhojaha. Valmikihi madhyanhikasya nirvahanartham. Tamasanadim gachati Tatra kashchid vyadhaha krauncha mithunat ekam baanena hanti tadrishtva baddhanukampasya karunapuritasya valmikehe mukhat chandobaddha kachit vani nissarati tasya prayatnam vina swayam bahiragachati sachavani manishada pratishtham iti Ramayanasya prasiddhaha shlokaha samskrita vangmayasya vaidika vangmayam vihaya laukika vangmayasya prathamaha shlokaha iti prasiddhaha tatra vyadham prati valmikehe shapaha he nishada tvam shashvati samaha pratishtham ma agamaha ityevam valmikehe shapaha anushtup chandasi nibaddhaha Tasya shlokasya bhudha vyakhyanani katham kriyante ityadi gatavarge adhitam agre saramaha kechita prashnaha prayekaha prashnaha asti hi tatha eva anayor madhye kim kaha bhedaha iti prashnaha eva karaha avadharanarthe etadeva anyatina ityasmin arthe evakaraha prayujyate hi ityasya tu bahushvartheshu prayogaha drishyate prasangam ashritya indeed because of it certainly definitely ityevam it cannot be defined astataha ayameva arthaha iti vaktum na shakyate prasangam ashritya arthabhedaha bhavati Kadachit hi iti padapuranartham api upayujyate. Cha vai tu hi ityete shabdaha padapuranartham api upayujyante. Ataha prasangam ashritya tesham arthaha jnatavyaha. Hi iti tu samanyataha linking. Dve vakye uchyate tayor madhye sambandham kalpayati. Tena karanena athava nishchayena ityevam arthaha bhavati. Adhyatana bhagam pathamaha. Tatra gadyam etavata kim abhut manishara pratishtham ityevam ritya valmikihi vyadham shashapa tadanu samayochita tatyan nirvartya swashramam prati gatavati bhagavati valmikau iti ekam laghu gadyam asti saralam asti tadanu samaya uchita krityam samayochita krityam nirvartya Sva ashramam prati gatavati bhagavati valmikau iti padachedaha tadanu tataha ityarthaha arthate manishada ityevam ಛಂದೋಮಯ್ಯಾಹ ವಾಚಃ ನಿಸ್ಸರಣಾನಂತರಂ ವ್ಯಾಧಂ ಶಪ್ತ್ವಾ ತದನಂತರಂ ಸಮಯೋಚಿತ ಕೃತ್ಯಂ. ಯಹ ಸಮಯಃ ಮಧ್ಯಾಹ್ನ ಸಮಯಃ ಇತಿ ಪೂರ್ವಮೇವ ಉಕ್ತಂ ಮಧ್ಯಂದಿನಾಯ ನಿಯಮಾಯ ಇತಿ. ಅತಃ ಸಮಯೋಚಿತಂ ಕೃತ್ಯಂ ತಸ್ಯ ಸಮಯಸ್ಯ ಯದುಚಿತಂ. ಅರ್ಥಾತ್ ಮಧ್ಯಾಹ್ನ ಕಾಲಸ್ಯ ವಿಹಿತ ಮಧ್ಯಾಹ್ನ ಕಾಲೇ ವಿಹಿತಂ ಯತ್ ಕಾರ್ಯಂ ಅರ್ಥಾತ್ ಮಾಧ್ಯಾಹ್ನಿಕಂ ಸಮಯೋಚಿತ ಕೃತ್ಯಂ ನಿರ್ವರ್ತ್ಯ ನಿರ್ವರ್ತಯತಿ ಕರೋತಿ ಸಂಪಾದಯತಿ ಇತ್ಯರ್ಥಃ. ಸೊ ಹ್ಯಾವಿಂಗ್ ಪರ್ಫಾರ್ಮ್ಡ್ ಇತ್ಯರ್ಥಃ. ಸೊ ಹ್ಯಾವಿಂಗ್ ಪರ್ಫಾರ್ಮ್ಡ್ ಮಾಧ್ಯಾಹ್ನಿಕ ವಿಚ್ ಇಸ್ ದ ರಿಚುವಲ್ ಫಾರ್ ದಟ್ ಟೈಮ್ ಆಫ್ ದ ಡೇ. ಸೊ ನಿರ್ವರ್ತ್ಯ ಕೃತ್ವಾ ಸ್ವಾಶ್ರಮಂ ಸ್ವಸ್ಯ ನಿಜ ನಿಜ ಶಬ್ದ ಸಂಸ್ಕೃತ ಭಾಷಾಯಾಂ ಸ್ವಂ ಇತ್ಯರ್ಥೆ. ಸೊ ನೈಜ ಪರ್ಣಶಾಲಾಂ ಆಶ್ರಮ ಪರ್ಣಶಾಲಾ ತಂ ಉದ್ದಿಶ್ಯ ಸ್ವಾಶ್ರಮಂ ಪ್ರತಿ ಗತವತಿ ಸ್ವಾಶ್ರಮಂ ಪ್ರಾಪ್ತವತಿ ಸತಿ ಭಗವತಿ ವಾಲ್ಮೀಕೌ ಪೂಜ್ಯೆ ವಾಲ್ಮೀಕಿ ಮಹರ್ಷೌ. ಸೊ ಆಫ್ಟರ್ ವಾಲ್ಮೀಕಿ ಹ್ಯಾಡ್ ರಿಟರ್ನ್ಡ್ ಟು ಹಿಸ್ ಹರ್ಮಿಟೇಜ್ ಕಂಪ್ಲೀಟಿಂಗ್ ದ or after performing the ritual which is mandated for that time of the day ityarthah. So etat avararanika agre kim jatam purnam vakyam na. This is not a complete sentence. Yada saha pratigatavan tada kim jatam iti agrima shloke vakshyati. Atah yada valmiki maharshihi madhyanikam samapya svasya ashramam pratigatavan tatah param kim abhut iti uchyate. ಅತ್ರ ವ್ಯಾಕರಣಂ ಪಶ್ಯಾಮಃ ಕಿಂಚಿತ್. ಸಮಯೋಚಿತ ಕೃತ್ಯಂ ಸಮಯಸ್ಯ ಉಚಿತಂ ಸಮಯೋಚಿತಂ ಉಚಿತಂ ನಾಮ ಯೋಗ್ಯಂ ಇತ್ಯರ್ಥಃ. ಷಷ್ಠೀ ಸಮಾಸಃ ಸಮಯೋಚಿತಂ ಕೃತ್ಯಂ ಇತಿ ಕರ್ಮಧಾರಯಃ ಸಮಯೋಚಿತ ಕೃತ್ಯಂ. ನಿರ್ವರ್ತ್ಯ ಇತ್ಯಸ್ತಿ ನಿರ್ ಇತಿ ಉಪಸರ್ಗಃ ವೃತು ವರ್ತನೆ ಇತಿ ಧಾತುಃ ವರ್ತತೆ ಇತಿ ಪ್ರಥಮಗಣಸ್ಯ ಧಾತುಃ ಆತ್ಮನೇಪದಿ ನಿಜಂತಾತ್ ಲ್ಯಪ್ ನಿರ್ವರ್ತತೆ ನಿರ್ವರ್ತಯತಿ. ಸೊ ಟು ಮೇಕ್ ಇಟ್ ಎಕ್ಸಿಸ್ಟ್ ಟು ಡೂ ಇಟ್ ಇತ್ಯರ್ಥಃ ಕರೋತಿ ಇತ್ಯರ್ಥಃ. ನಿಜಂತಾತ್ ಲ್ಯಪ್ ಪ್ರತ್ಯಯಃ ಕೃತ್ ಪ್ರತ್ಯಯಃ ಅವ್ಯಯಂ ಭವತಿ ನಿರ್ವರ್ತ್ಯ ಕೃತ್ವಾ ಇತ್ಯರ್ಥಃ. ಸ್ವಾಶ್ರಮಂ ಸ್ವಸ್ಯ ಆಶ್ರಮಃ ಸ್ವಾಶ್ರಮಃ ಷಷ್ಠಿ ಸಮಾಸಃ ತಂ ಸ್ವಾಶ್ರಮಂ ಪ್ರತಿ ಗತವತಿ ಗತವತ್ ಶಬ್ದ ಗಮಲ ಗತೌ ಇತಿ ಧಾತುಃ ಕ್ತವತು ಪ್ರತ್ಯಯಃ ಕೃತ್ ಪ್ರತ್ಯಯಃ ಗತವಾನ್ ಗತವಂತೌ ಗತವಂತಃ ಇತಿ ಕ್ತವತು ಪ್ರತ್ಯಯಃ ತಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗಃ ಸಪ್ತಮೀ ವಿಭಕ್ತೌ ಏಕವಚನಂ ಗತವಾನ್ ಗತವಂತೌ ಗತವಂತಃ ಗತವಂತಂ ಗತವಂತೌ ಗತವತಃ ಇತ್ಯೇವಂ ಅಂತೆ ಗತವತಿ ಗತವತೋಃ ಗತವತ್ಸು ಇತಿ ಸಪ್ತಮೀ ವಿಭಕ್ತೌ ರೂಪಾಣಿ. ಭಗವತಿ ಭಗವತ್ ಶಬ್ದಃ ಪೂರ್ವಮಪಿ ದೃಷ್ಟಃ ವಾಲ್ಮೀಕೌ. ಸೊ ದಿಸ್ ಹೋಲ್ ಫ್ರೇಸ್ ಗತವತಿ ಭಗವತಿ ವಾಲ್ಮೀಕೌ ಇತಿ ಸಪ್ತಮೀ ವಿಭಕ್ತೌ ವಿದ್ಯತೆ. ಅಯಂ ಪ್ರಯೋಗಃ ಸತಿ ಸಪ್ತಮೀ ಪ್ರಯೋಗಃ ಇತಿ ಖ್ಯಾತಃ. Okay, ayam vishishtaha prayogaha. So the saptami vibhakti signifies that two actions are happening at the same time. So when, that is after Valmiki had returned to his hermitage, kim abhut iti agre uchyate. So kim api jatam. So Valmiki hi ashramam gatavan, tada kim abhut ityevam dvayoho kriyayoho. ಪರಸ್ಪರ ಲಕ್ಷಣ ಅರ್ಥಾತ್ ಏಷಾ ಕ್ರಿಯಾ ಉಭಯೋ ಸಂಬಂಧ. ಸೊ ಒನ್ ಕ್ರಿಯಾ ಹ್ಯಾಪನಿಂಗ್ ಈದರ್ ಅಟ್ ದ ಸೇಮ್ ಟೈಮ್ ಆರ್ ಆಫ್ಟರ್ ಆರ್ ಬಿಫೋರ್ ಅನದರ್ ಕ್ರಿಯಾ. ಓಕೆ, ಸೊ ದಟ್ ಈಸ್ ಇಂಡಿಕೇಟೆಡ್ ಬೈ ದ ಯೂಸೇಜ್ ಆಫ್ ಸಪ್ತಮಿ ವಿಭಕ್ತಿ ವಿಚ್ ವಿ ಕಾಲ್ ದ ಸತಿ ಸಪ್ತಮಿ ಪ್ರಯೋಗ. ಶಾಸ್ತ್ರೇ ತು ಭಾವಲಕ್ಷಣ ಸಪ್ತಮಿ ಇತ್ಯುಚ್ಯತೆ. ಯಸ್ಯ ಚ ಭಾವೇನ ಭಾವಲಕ್ಷಣಂ ಇತಿ ಸೂತ್ರಂ. ಭಾವಃ ನಾಮ ಕ್ರಿಯಾ. ಏಕಸ್ಯಾಃ ಕ್ರಿಯಾಯಾಃ ಸಮಯಃ ಅನ್ಯಯಾ ಕ್ರಿಯಯಾ ಜ್ಞಾಯತೆ. तादृशः प्रयोगः भावलक्षणसप्तमी इत्युच्यते. तत्र सप्तम्यन्तस्य प्रयोगः. सो तदनु समयोचितकृत्यं निर्वर्त्य स्वाश्रमं प्रति गतवति भगवति वाल्मीकौ. किं जातम् इत्युच्यते. कोऽपि वक्तुमिच्छति अनुवक्तुम्? मोहन महोदय.
सुप्रभातम्.
वाणी विलासम्
अपरत्र कृतोपलम्भम्
अम्भोजभूः
असहमान इवाविरासीत्
आभातियत्कृतिरनेकविधप्रपञ्च व्याजेन्द्रजाल
विधिसाधकपिञ्चिकेव
वाणीविलासमपरत्र कृतोपलम्भम्
वाणीविलासमपरत्र कृतोपलम्भम्
अम्भोजभूरसहमान इवाविरासीत्
आभादियत्कृतिरनेकविधप्रपञ्च व्याजेन्द्रजालविधिसाधकपिञ्चिकेव.
सम्यक्. सो अत्र रामायणस्य रचनां चोदयितुं वाल्मीकेः पुरतः ब्रह्मा आविर्भवति इत्यर्थः. यदा वाल्मीकिः आश्रमं प्रति गतवान् ततः तस्य पुरतः चतुर्मुखः ब्रह्मा आविर्भवति इति अस्मिन् श्लोके उच्यते. पदच्छेदः
वाणीविलासम् अपरत्र कृतोपलम्भम् अम्भोजभूः
असहमानः इव आविरासीत्
आभाति यत्कृतिः अनेकविधप्रपञ्च व्याजेन्द्रजालविधिसाधकपिञ्चिका
इति एकं पदम् इव.
ओ ओ व्याजेन्द्रजालविधिसाधकपिञ्चिक एव
इव
पिञ्चिका इव. धन्यवादः.
वाणीविलासम् अपरत्र कृत उपलम्भम् अम्भोजभूः असहमानः इव आविरासीत् आभाति यत् कृतिः अनेकविध प्रपंच व्याज इंद्रजाल विधि साधक पिंचिका एकमेव पदम् सो अनेकविध प्रपंच व्याजेन्द्रजाल विधि साधक पिंचिका इव तत्र पश्यामः अत्र प्रधानं क्रियापदमस्ति आविरासीत् इति आविरासीत् आविर्भवति इति प्रयोगः श्रुतः स्यात् प्रादुर्भूतः प्रत्यक्षः भवति इत्यर्थः टु अपियर इन फ्रंट ऑफ इत्यर्थः आविरासीत् प्रादुर्भूतः कः आविरासीत् इति चेत् अम्भोजभूः अम्भोजभूः अम्भोजं नाम कमलं कमलभवः कमलसंभवः चतुर्मुखः ब्रह्मा नारायणस्य नाभिकमलात् ब्रह्मणः उत्पत्तिः इति प्रसिद्धम् अतः अम्भोजभूः इत्युक्ते चतुर्मुखः ब्रह्मा सृष्टिकर्ता इत्यर्थः सः प्रादुर्भूतः किमिव असहमानः इव अमृष्यमाणः इव as if he was unable to tolerate sahate sahamanah sodhum shaknoti a sahamanah na sahamanah arthat sodhum na shaknoti iva kim sodhum kim asahamanah iti chet vani vilasam vanyaha vilasah vani ityasya saraswati इत्यपि अर्थः सामान्यतः वाक् इत्यपि अर्थः अस्ति वाग्देवता इत्यतः सरस्वत्याः अपि वाणी इत्यनेन व्यवहारः भवति सरस्वत्याः विलासः लीला सरस्वत्याः लीलां कीदृशम् अपरत्र नाम अन्यस्मिन् अन्यस्मिन् कुत्र वाल्मीकौ वाणीविलासम् अपरत्र सरस्वत्याः लीलां अन्यस्मिन् वाल्मीकौ कृतोपलम्भम् कृतः उपलम्भः नाम प्राप्तिः वस्तुतः सरस्वती ब्रह्मणः पत्नी किल तस्याः विलासः नाम अत्र श्लेषः इस् जस्ट् डूइङ्ग् अ कम्पेरिजन् सरस्वत्याः लीला स्वम् आत्मानं त्यक्त्वा अन्यस्मिन् नाम वाल्मीकौ उपलभ्यते इत्येतत् असहमानः इव दिस् इस् नाट् एन् उपमा इट् इस् एन् उत्प्रेक्ष एस् इफ् हि कुड् नाट् टालरेट् सरस्वती शोयिङ्ग् हर् प्रेसेन्स् शोयिङ्ग् हर् लीला इन् सम्बडि अदर् देन् हिम्सेल्फ् दट् इस् हिस् वैफ् हु इस् शोयिङ्ग् हर् यु नो ब्यूटी आर् ग्रेस् इन् सम्बडि एल्स् दट् इस् वाल्मीकि वाणीविलासम् अपरत्र कृतोपलम्भम् असहमानः इव अम्भोजभूः आविरासीत् एस् इफ् टु पिक् अ फैट् वित् वाल्मीकि इट् इस् जस्ट् अ कम्पेरिजन् वाणीविलासम् अपरत्र कृतोपलम्भम् असहमानः इव अम्भोजभूः आविरासीत् इति वाक्यं समाप्तम् तदेव तात्पर्यम् ब्रह्मा वाल्मीकेः पुरतः प्रादुर्भूतः कीदृशः ब्रह्मा इति द्वितीय अर्धेन वर्णयति स्वस्य पत्न्याः सरस्वत्याः विलासस्य अन्यस्मिन् उपलब्धिम् सोढुम् अशक्तः इव असूयया इव एस् इफ् हि वर् जेलस् आफ् सरस्वती bestowing her attention on somebody else kidrishah ambojabuh kidrishah sah iti chet yat kritih yasya brahmanah kritih nama kriya shaktih so brahmanah kriya nama srishtih srishti kriyayah shaktih aneka vidha prapancha vyajendra jala pinchika iva abhati prakashate तस्य क्रियाशक्तिः प्रकाशते कथं प्रकाशते एवं प्रकाशते एवम् इत्यस्य किं पिञ्छिका इव पिञ्छिका इत्युक्ते पिच्छम् इत्यर्थः ऐन्द्रजालिकैः उपयुज्यमानः कूर्चः तस्मिन् काले अपि आसीत् इन्द्रजालं नाम मैजिक ओके अ मैजिक शो सो यदा कश्चित् इन्द्रजालिकः इन्द्रजालं प्रदर्शयति तदा तस्य हस्ते किमपि भवति अधुना काले अपि भवति किमपि ब्रश् अथवा एकं वस्त्रं किमपि गृहीत्वा किलते दट् इस् मेन्ली फार् डिस्ट्राक्टिङ्ग् द अटेन्शन् दे यूस् सम्थिङ्ग् इन् देर् हेण्ड् सो ईदर् दे वेव् अ ब्रश् आर् वेव् अ क्लात् आर् सम्थिङ्ग् अण्ड् देन् अ राबिट् कम्स् औट् आफ् इट् आर् सम्थिङ्ग् सो तदेव इन्द्रजालविधिः इन्द्रजालविधिसाधकपिञ्चिका इन्द्रजालविधौ काचित् पिञ्चिका भवति अत्र का पिञ्चिका इति सः वर्णयति ऐन्द्रजालिकैः उपयुज्यमानः कूर्चः सः इव पिञ्चिका इव इन्द्रजालविधेः साधकपिञ्चिका सो इन्द्रजालविधिं साधयितुं या पिञ्चिका नाम पिच्छम् उपयुज्यते तदिव अत्र कीदृशम् इन्द्रजालं ब्रह्मा कीदृशम् इन्द्रजालविधिं करोति एकं क्षणम् एक्स्क्यूस् मी जस्ट् फार् अ मोमेण्ट् ब्रह्मणः इन्द्रजालं कीदृशं किं करोति ब्रह्मा इत्युक्ते अनेकविधप्रपञ्च अनेकविधः बहुप्रकारकः नाम यत्र बहुविधाः सर्गाः सन्ति मनुष्याः प्राणिनः पक्षिणः इत्येवं बहुप्रकारकः यः प्रपञ्चः नाम विश्वं तस्य सृष्टिः एव अस्य व्याजः अपदेशः व्याजः इत्युक्ते यत् नास्ति तस्य दर्शनम् अयथार्थप्रदर्शनम् इत्युच्यते ऐन्द्रजालिकैः किं क्रियते किमपि प्रदर्श्यते यत् वस्तुतः नास्ति तदेव किल इन्द्रजालम् इत्युच्यते सो यत् नास्ति तस्य प्रदर्शनम् एवं वस्तुतः जगन्मिथ्या तथापि अनेकविधस्य प्रपञ्चस्य व्याजेन सः इन्द्रजालं प्रदर्शयति ब्रह्मणः सृष्ट्या एव जगत् भाति किल अतः यत् वस्तुतः नास्ति तादृशस्य अनेकविधस्य प्रपञ्चस्य सृष्टिरूपम् इन्द्रजालं ब्रह्मा करोति तत्र इन्द्रजाले साधकपिञ्चिका का भवति तस्य कृतिः नाम क्रियाशक्तिः ब्रह्मा बहुप्रकारकस्य मिथ्यारूपस्य जगतः सृष्टिरूपम् इन्द्रजालं करोति इति कल्पना भोजस्य कल्पना सो तत्र क्रियाशक्तिः एव इन्द्रजालस्य साधकपिञ्चिका यत्कृतिः यस्य ब्रह्मणः क्रियाशक्तिः अनेकविधप्रपञ्चव्याज बहुप्रकारकस्य प्रपञ्चस्य सृष्टिरूपं सृष्टिरूपः यः इन्द्रजालविधिः तस्य साधकपिञ्चिका कूर्चः इव आभाति इति ब्रह्मणः वर्णनं सृष्टिकर्ता ब्रह्मा प्रादुर्भूतः इत्येव तात्पर्यं तस्य वर्णनरीतिः अन्वयः कथम् अपरत्र कृतोपलम्भं वाणीविलासम् असहमानः इव अम्भोजभूः आविरासीत् यत्कृतिः यस्य अम्भोजभुवः कृतिः अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्चिका इव आभाति इति अन्वयः तात्पर्यं किम् सृष्टिकर्तः सृष्टिकर्ता ब्रह्म अत्र दोषः सृष्टिकर्ता इत्येव सृष्टिकर्ता ब्रह्म स्वस्य क्रियाशक्त्या बहुप्रकारकस्य प्रपञ्चस्य सृष्टिरूपम् इन्द्रजालं प्रदर्शयति So since he is the creator, it is as if he is enacting a magic show in which he shows the creation of so many different kinds of worlds where there is actually nothing. Okay. So, tadrishaha saha. So, such the creator Brahma, patnyaha sarasvatyaha vilasam anyasmin upalabdham asuyaya sodhum ashaktaha iva valmikeha purataha pradurbhutaha. So the creator Brahma, as if he was envious of Valmiki, as if he could not tolerate his wife's charm or beauty appearing in somebody else. So he emerged or he showed himself before Valmiki. Ityarthah. Vani vilasama paratrakrito palambham ambhojabhurasahamana iva virasit abhati yatkritiraneka vidha prapanchavyajendra jala vidhi sadhaka pinchikeva. Sandeha hastiva shlokasya arthe. नास्ति चेत् श्लोकस्थानि पदानि पश्यामः. आविरासीत् इति क्रियापदम् आसीत् असभुवि धातुः अस्ति इत्यस्य लङ्लकारे प्रथमपुरुषे एकवचनम्. तत्पूर्वम् आविस् इति अव्ययम्. आविः इति अव्ययम् कृ भू एताभ्यां योगे प्रयुज्यते. कृ धातुना सह भूधातुना सह च आविस् इत्यस्य प्रयोगः भवति. आविर्भवति नाम प्रत्यक्षः भवति इत्यर्थः. आविष्करोति टु डिस्कवर् इत्यर्थः. सो एवं प्राकाश्ये प्रादुराविस्यात् इत्यमरकोशः. प्रादुर्भवति आविर्भवति इति समानार्थकौ. प्राकाश्ये प्रकाशः भवति प्रकाशं करोति इत्यर्थे प्रयोगः. एवं भूधातुना कृ धातुना च सह आविस् इत्यस्य प्रयोगः मिलित्वा एव क्रियापदम् आविरासीत्. सो इट् इस् सिमिलर् टु एन् उपसर्ग. इट् इस् नाट् एन् उपसर्ग बट् इट् इस् स्टिल् यूस्ड् बिफोर् ईदर् द कृ धातु आर् द भू धातु. सो लङ्लकारे प्रथमपुरुषे एकवचनम् तत्. आभाति इति अन्यत् क्रियापदमस्ति. आङ् इति उपसर्गपूर्वकस्य भा दीप्तौ इत्यस्य धातोः लट्लकारे प्रथमपुरुषे एकवचनम् आभाति भाति भातः भान्ति. वाणीविलासम् वाण्याः विलासः वाणीविलासः षष्ठी तत्पुरुषसमासः. इट्स् अ वेरि पाप्युलर् टर्म्. ऐ मीन् वाणीविलास् प्रेस् वास् वन् आफ् द वेरि फेमस् publication houses of Sanskrit in Tamil Nadu in in the beginning of the 19th century. So they have done published a lot of high quality Sanskrit works. Vani Vilas Press. So Vani Vilasa Vanyaha Vilasaha Vani Vilasaha Tam. So Saraswatyaha Saundaryam Lila Ityarthaha Aparatra Apara Ityasmat Shabdat त्रल् इति तद्धितप्रत्ययः. सो सप्तम्यर्थे तद्धितप्रत्ययः. किं सर्वनाम बहुभ्यः इति उच्यते. अतः किं कुत्र सो वेर्. सो सप्तम्यर्थे कस्मिन् प्रदेशे इत्यर्थे कुत्र सर्वनामशब्देभ्यः भवति. अत एव तत्र अत्र अपरत्र सर्वत्र अन्यत्र. सो आल् दोस् वर्ड्स् आर् फ्रम् द सफिक्स् काल्ड् त्रल्. सप्तम्यर्थे अयं तद्धितप्रत्ययः. अयं शब्दः अव्ययं भवति. सो अपरत्र इति अव्ययम्. अपरस्मिन् प्रदेशे एल्स्वेर् इत्यर्थः. अपरत्र कृतोपलम्भम् कृतः उपलम्भः येन सह कृतोपलम्भः तम्. सो वाणीविलासम् इत्यस्य विशेषणम् अम्भोजभूः. अम्भसि जायते इति अम्भोजम् कमलम् नपुंसकलिङ्गे प्रयोगः. अम्भोजम् अम्भः नाम अम्भस् शब्दः जलार्थकः जलम् इत्यर्थः. सो जले उत्पद्यते इति अम्भोजम् कमलम्. अम्भोजात् भवति इति अम्भोजभूः ब्रह्मा इत्यर्थः. असहमानः न सहमानः असहमानः. सहमानः इत्यत्र षः मर्षणे इति धातुः आत्मनेपदी सहते इति. तस्मात् शानच् प्रत्ययः कृत् प्रत्ययः सहमानः इति. न सहमानः असहमानः नञ् तत्पुरुषसमासः. इव आविरासीत् आभाति यत् कृतिः यस्य कृतिः यत् कृतिः षष्ठी तत्पुरुषः एंड देन यू हैव अ लॉन्ग समास अनेक विध प्रपंच व्याजेन्द्र जाल विधि साधक पिंचिका सो यत्र यत्र दीर्घः समासः भवति सो वी जनरली टेक इट 2/2 ऑलवेज 2 वर्ड्स एट अ टाइम सो इंद्रजालम अस्ति तत्रापि इंद्रस्य जालम इति विभक्तुं शक्यते बट इंद्रजाल इज अ टर्म कन्वेंशनली यूज्ड फॉर मैजिक सो इंद्रजालस्य विधिः इंद्रजाल विधिः षष्ठी तत्पुरुषः साधिका पिंचिका साधक पिंचिका कर्मधारयः सो अनेके विधाः यस्य सः अनेक विधः अनेक विधः प्रपंचः अनेक विध प्रपंचः सो दिस इज अ कर्मधारय अनेक विध प्रपंचः व्याजः यस्य सः अनेक विध प्रपंच व्याजः बहुप्रीहिः सो अनेक विध प्रपंच व्याजः एव इंद्रजाल विधिः ब्रह्मणः इंद्रजाल विधिः कः अनेक विध प्रपंच व्याजः बहुप्रकारस्य प्रपंचस्य सृष्टिः एव इंद्रजाल विधिः अथवा तस्य प्रदर्शनम् एव इंद्रजाल विधिः कर्मधारयः सो तादृशस्य इंद्रजाल विधेः अनेक विध प्रपंच व्याजेन्द्रजाल विधेः साधक पिंचिका इति षष्ठी तत्पुरुषः अर्थम् अनुसृत्यैव समासस्य विग्रहः क्रियते अभ्यासेन सिद्ध्यति भेतव्यं नास्ति सो विथ प्राक्टिस व्हेन वी ट्राई टू अगेन रिपीटेडली split the longer samasas, then we'll get used to doing this. Okay, first start with the shorter ones and then we can do the longer ones. Vastu. So, tra utpreksha alankarah asahamanaha iva. Asahamanaha iti iva iti atra upamana. It is not a comparison. Okay, it is an utpreksha because it is not actually so. Vastutaha Brahma asuyaya valmikeha purataha na pradurbhutaha. Kila ataha etadrishaha alankaraha utpreksha ityuchyate. Sambhavana syat utpreksha. So utpreksha is where the poet imagines something knowing it to be not true. Okay, so it is told only for the sake of that poetic effect. Sambhavana syad utpreksha vastu hetu phalatmana. So where he could be exaggerating on the on the swarupa, on the vastu, on something. Okay, so for example, they say dhumastomam tamashanke. So there is a the smoke is so dense that it looks like complete darkness, etc. Or this one. Again, hetu. So in this case, he is exaggerating on the hetu. That is the cause. Shruyateva? Na shruyateva? Are you able to hear me? Okay. So is there a break? Where did it break? I mean, I didn't feel anything. Okay. So, utpreksha alankaraha ityuchyate. So, atra asahamanaha iva. As if he was unable to tolerate. Which means that was not the real cause. But the poet is exaggerating as if that might be the cause. He is making a uha for poetic effect, not for real this one. Okay, so upama is where there are two actual things and you are comparing them, whereas utpreksha is where something which is not true is being imagined by the poet for the effect. Okay, so this is the confusion is because in both cases, both for upama and for utpreksha, they use iva. Iva ityasya prayogaha utprekshayam api bhavati. एवं उपमालंकारे अपि भवति अर्थावगतौ ज्ञायते सो ऑन अंडरस्टैंडिंग द मीनिंग वी कैन क्लियरली नो वेदर इट इज उत्प्रेक्षा और उपमा सो पिंचिकेव सो पिञ्चिका इव इत्यत्र तु उपमालङ्कारः. सो इन्द्रजालस्य काचित् पिञ्चिका भवति, अस्य ब्रह्मणः क्रियाशक्तिः पिञ्चिका इव आभाति. सो इट् अपियर्स् लैक् द पिञ्चिका विच् द इन्द्रजाल इस् यूस्. सो तत्र उपमालङ्कारः, किन्तु असहमानः इव इत्यत्र उत्प्रेक्षालङ्कारः. सो ऐ थिङ्क् दट्स् इट्. वाणी विलासमपरत्र कृतोपलम्भम् अम्भोजभूरसहमान इवा विरासीत्. आभाति यत्कृतिरनेकविध प्रपञ्चव्याजेन्द्रजालविधि साधक पिञ्चिकेव. अग्रे गच्छामः. ततः परमहर्षेण महर्षिणा विधिवदभ्यर्चितः परमेष्ठी मध्यलोकेऽपि स्ववृत्तम् प्रकाशयितुम् किल भवन्तमेव उपतिष्ठमानयानया भारत्या रामचरितम् यथाश्रुतम् व्याक्रियतामिति व्याहृत्य अन्तरधात् इति गद्यम्. सो रामायणम् रचयितुम् ब्रह्मणः आज्ञा. सो वाल्मीकिः माध्यानिकम् समाप्य आश्रमम् गच्छति, तदा तस्य पुरतः ब्रह्मा आविर्भवति. आविर्भूय किं करोति? रामायणं रचयतु इति आदिश्य अन्तरधात् सः तिरोहितः भवति. अतः रामायणं रचयितुं ब्रह्मणः आज्ञा अत्र विव्रियते. ततः परमहर्षेण महर्षिणा विधिवत् अभ्यर्चितः परमेष्ठी मध्यलोके अपि स्ववृत्तम् प्रकाशयितुम् किल भवन्तम् एव उपतिष्ठमानया अनया भारत्या रामचरितम् यथाश्रुतम् व्याक्रियताम् इति व्याहृत्य अन्तरधात् इति गद्यम्. सो ततः कदा? ब्रह्मणः प्रादुर्भावानन्तरम्. यदा ब्रह्मा आविर्भवति तदा परमहर्षेण, परमः हर्षः यस्य सः, अत्यन्तं सन्तुष्टः, अत्यन्तं सन्तुष्टेन महर्षिणा नाम वाल्मीकिना, वाल्मीकेः महान् आनन्दः सञ्जातः. साक्षात् सृष्टिकर्ता पुरतः तिष्ठति इति तु महतः आनन्दस्य विषयः. अतः परमहर्षेण महर्षिणा विधिवत् यथाशास्त्रम्. यदा कश्चित् अतिथिः गृहमागच्छति तदा तस्य सत्कारः कथं कर्तव्यः इत्यत्र विधिः अस्ति. आदौ पाद्यम् अर्थात् पादप्रक्षालनार्थं जलं दातव्यम्, अर्घ्यं हस्तप्रक्षालनार्थं जलं दातव्यम्, आचमनीयं पातुं जलं देयम्, आसनम् उपवेष्टुम् आसनं देयम्. सो एतत् सर्वं विधिः. सो विधिवत् यथाशास्त्रं तथा अभ्यर्थितः पूजितः, अर्घ्यपाद्य आसनादिभिः पूजितः कः? परमेष्ठी नाम ब्रह्मा, सृष्टिकर्ता ब्रह्मा. मध्यलोके अपि, मध्यलोकः स्वर्गः भूमिः पातालम् इति लोकत्रयम्, तत्र मध्यलोकः इत्युक्ते भूलोकः. सो भूलोके अपि नाम अन्येषु लोकेषु, स्वर्गलोके ज्ञायते, पाताले ज्ञायेत, किन्तु अत्र भूलोके अज्ञातम् नाम लोकान्तरेषु यद् ज्ञातम् अत्र तु न ज्ञातम्. तादृशम् स्ववृत्तम्. वृत्तशब्दस्य द्वेधा अर्थः. एकं तु चरित्रम् महिमा इत्यर्थः भवति, आत्मनः महिमानम् इति, अथवा वृत्तम् नाम छन्दोरूपत्वम्. तत्र मालिनी वृत्तम्, वसन्ततिलका वृत्तम् इत्युच्यते. सो अ मीटर् आफ् अ पद्यकाव्य इस् काल्ड् अ वृत्त. सो सः अपि अर्थः भवितुम् अर्हति. स्ववृत्तम् प्रकाशयितुम्, उद्योतयितुम्. सो टु एक्सिबिट् हर् नेचर्. सो आल् दिस् इस् रेफरिङ्ग् टु द भारती, दट् इस् द वाणी आर् द सरस्वती, द स्पीच्. सो दिस् meter bound speech, the padya roopa or the vritta roopa of speech is already known in swargaloka. So to bring it to prakasha even in the bhuloka, or to show off her charm, the charm of a poetic composition even in the bhuloka. So swargadishu yat purvameva jnatam vachah chando roopatvam. तादृशं भूलोके अपि प्रकाशयितुं तदर्थं उद्योतयितुं किल किल इति अव्ययं खलु इत्यर्थः इंडीड इत्यर्थे भवन्तमेव भवन्तं त्वामेव अर्हः इत्युक्ते वाचः छन्दोरूपत्वं वाणी अथवा सरस्वती स्वस्याः सौन्दर्यम् अथवा वृत्तबद्धस्य काव्यस्य सौन्दर्यं भूलोके प्रकाशयितुमिच्छति तदर्थं कश्चित् अपेक्षते सो शी वाण्ट्स् टु शो आफ् हर् फार्म् द फार्म् आफ् पोयेटिक् स्पीच् इन् भूलोक थ्रू सम् वर्दी पर्सन् थ्रू सम् डिसर्विङ्ग् पर्सन् अतः भवन्तमेव उपतिष्ठमानय भवान् योग्यः अथवा अर्हः अतः त्वामेव अन्यं कमपि न इच्छति त्वामेव उपतिष्ठमानय तव समीपे वर्तमानय अथवा भवन्तम् अनुवर्तमानय अनया अनया नाम भवतः मुखात् या वाणी निर्गता छन्दोबद्धा तया भारत्या वाण्या एतादृशैरेव छन्दोबद्धैः वाग्भिः इत्यर्थः छन्दोबद्धाभिः वाग्भिः सो वाट् इस् ब्रह्मा सेयिङ्ग् सरस्वती अथवा वाणी स्वस्याः वृत्तरूपं नाम छन्दोबद्धं रूपं भूलोके प्रकाशयितुमिच्छति अतः भवन्मुखात् सा छन्दोबद्धा वाणी निर्गता एतादृशैः वचनैः एव रामचरितं यथाश्रुतं व्याक्रियताम् सो यूसिङ्ग् सिमिलर् स्पीच् दट् इस् पोयेटिक् आर् मेट्रिकल् स्पीच् रामचरितं श्रीरामस्य चरित्रं यथाश्रुतं सो पूर्वमेव नारदस्य मुखेन श्रुतमस्ति ततः एव किल आरम्भः वाचं निशम्य भगवान् स तु नारदस्य अतः नारदस्य मुखाद् यत् श्रुतं तमेव क्रमम् अनुसृत्य यथाश्रुतं व्याक्रियतां व्याख्यायतां विस्तरेण कथ्यताम् इति व्याहृत्य एवम् उक्त्वा अन्तरधात् अदृश्यः अभूत् कः परमेष्ठी परमेष्ठी ब्रह्मा इति व्याहृत्य एवम् उक्त्वा अन्तर्हितः सो ब्रह्मा सेड् दस् अण्ड् डिसपियर्ड् सो ब्रह्मा हु वाज् आनर्ड् अकार्डिङ्ग् टु द विधि बै वाल्मीकि सो हि सेड् दस् वाट् डिड् हि से मध्यलोकेऽपि सो इवन् इन् द भूलोक Saraswati or speech, the goddess of speech, wants to show off her metrical beauty, the beauty of Chandobaddha Vani. Therefore, she is following you. Anaya Bharatya, using such speech, that is using the Chandas or poems which are set to Chandas, Ramacharitam Yathashrutam Vyakriyatam. So, narrate the story of Rama. As you heard it from Narada. Iti vyahritya eva muktva parameshti brahma antaradhat antarhitaha adrishyaha abhut. Ityarthaha. Tatah paramaharshena maharshina vidhivat abhyarthitaha parameshti madhyaloke api svavrittam prakashayitum kila bhavantameva upatishthamanaya anaya bharatya रामचरितं यथाश्रुतं व्याक्रियताम् इति व्याहृत्य अन्तरधात् तत्र वाल्मीकिरामायणे सः कथयति ब्रह्मा मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती रामस्य चरितं कृत्स्नं कुरुत्वं ऋषिसत्तम इति बालकाण्डे ब्रह्मा वदति ब्रह्मन् इति अत्र वस्तुतः वाल्मीकेः सम्बोधनम् हे ब्रह्मन् नाम हे महर्षे मच्छन्दादेव वस्तुतः मम इच्छया एव इयं सरस्वती ते प्रवृत्ता सो दिस् स्पीच् हेस् कम् टु यू बिकास् आफ् मै डिसैर् ओके सो मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती रामस्य चरितं कृत्स्नं कुरु त्वं ऋषिसत्तम सो पूर्णं रामचरितं त्वं कुरु इति बालकाण्डे ब्रह्मा कथयति धर्मात्मनो भगवतो लोके रामस्य धीमतः वृत्तं कथय धीरस्य यथा ते नारदात् श्रुतम् इत्यपि कथयति. सो लोके भगवतः धर्मात्मनः धीमतः रामस्य वृत्तम्. सो तादृशस्य रामस्य चरितम्, यः धर्मात्मा धीमान् भगवान् तस्य चरितम् धीरः धीरस्य चरितम् कथय यथा नारदात् श्रुतम्. सो एज यू हर्ड इट् फ्रम् नारद यू नेरेट् हिस् स्टोरि. सो तदेव गद्यरूपेण भोजः अत्र कथयति. सो तात्पर्यम् किम्? सृष्टिकर्तुः ब्रह्मणः आगमनेन अत्यन्तम् सन्तुष्टः वाल्मीकिः यथाविधि तम् अर्घ्यादिभिः अर्चयामास. ततः आत्मनः छन्दोबद्धम् रूपम् भूलोके प्रकाशयितुम् एव इयम् वाणी भवतः मुखात् निर्गता. तादृशैरेव छन्दोबद्धैः वचनैः नारदात् श्रुतम् रामचरित्रम् वर्णय इति वाल्मीकिम् आदिश्य ब्रह्मा अदृश्यः अभूत्. सो ब्रह्मा डिसपियर्ड् आफ्टर् ordering Valmiki to compose the Ramayana. Paramaharshena paramaha harshaha yasya saha bahuvrihi samasaha tena paramaharshena maharshina mahan chasau rishishcha maharshihi karmadharayaha tena vidhivat vidhi shabdat vati iti taddhita pratyayah तदर्हति इत्यर्थे विधिम् अर्हति इति विधिवत्. अभ्यर्चितः अभि इति उपसर्गः अर्चपूजायाम् इति धातुः क्तप्रत्ययः अर्चितः कृत्प्रत्ययः अभ्यर्चितः पूजितः इत्यर्थः. परमेष्ठि परमे तिष्ठति इति अलुक् समासः. सो यूजुवलि वेन् यू हाव् द samasa, the vibhakti gets deleted. If you say Ramasya patni, it becomes Rama patni. So dasya, the vibhakti is deleted. So yatra na bhavati. So you have parame iti saptam yantataya eva shruyate. So such a samasa is called aluk samasa. It's actually an upapara samasa in which the vibhakti is not deleted. Parameshti, parameshthin iti नकारान्तः पुल्लिङ्गशब्दः प्रथमाविभक्तौ एकवचने परमेष्ठी इति भवति. ब्रह्मात्मभू सुरज्येष्ठः परमेष्ठी पितामहः इति अमरकोशः. ब्रह्मा आत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः एतत् सर्वमपि ब्रह्मणः पर्यायपदम्. मध्यलोके मध्यः लोकः मध्यलोकः अपि स्वस्य वृत्तम् स्ववृत्तम् प्रकाशयितुम् प्र उपसर्गः काश्रदीप्तौ इति धातुः तुमुन् प्रत्ययः. सो तुमुन्नन्तम् अव्ययम् भवति. प्रकाशयितुम् किल भवन्तम् भवत् इति तकारान्तः सर्वनामशब्दः. भवान् भवन्तौ भवन्तः भवन्तम् पुल्लिङ्गे द्वितीयाविभक्तौ एकवचनम् भवन्तम् एव उपतिष्ठमानया. उप इति उपसर्गः ष्ठा गतिनिवृत्तौ इति धातुः. तिष्ठति इत्यत्र यः धातुः सः शानच् प्रत्ययः. कृत् प्रत्ययः उपतिष्ठमाना इति स्त्रीलिङ्गे आकारान्तः स्त्रीलिङ्गः तृतीया विभक्तिः एकवचनम् उपदिष्टमानया भारत्या इत्यत्र विशेषणम्. सो ष्ठा धातुः परस्मैपदी तिष्ठति, बट् वेन् इट् इस् प्रिसीडेड् बै सर्टन् उपसर्गस् इट् बिकम्स् आत्मनेपदी. प्रतिष्ठते उपतिष्ठते इत्यादिषु आत्मनेपदित्वं दृश्यते, अतः शानच् प्रत्ययः. भारत्या ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती इति अमरकोशः. ईकारान्तस्त्रीलिङ्गः तृतीयाविभक्तौ एकवचनम्. रामचरितम् रामस्य चरितम् रामचरितम् यथाश्रुतम् श्रुतम् अनतिक्रम्य यथाश्रुतम्. सो नाट् you know, exaggerating on what you heard. That is, as you heard it. Ityarthaha. Avyayi bhava samasaha. Shastram atikramya yatha shastram. Icham atikramya yathecham. Shrutam anatikramya yatha shrutam. Ityadishu avyayi bhava samasaha. Vyakriyatam. Va iti upasargadvayam. Dukrinya karane iti dhatuhu. Karmani lotlakaraha. Ramacharitam vyakriyatam. So, let the Ramacharita be narrated by you. Ityarthaha. Karmani lotlakaraha. Vyakarotu iti kartari prayogaha. Vyakriyatam iti karmani prayogaha. Prathama purushaha ekavachanam. Ramacharitam bhavata vyakriyatam. Let the Ramacharita be narrated by you. Kartari prayove katham bhavati. Ramacharitam bhavan vyakarotu. Iti kartari prayove bhavati. Vyahritya. Va iti upasargadvayam. Hrinya harane iti dhatuhu. Lyap pratyayah. Vyahritya. Antaradhat. Antar. Purvakam dudhai dharana poshanayohu iti dhatuhu. Antar dadhati. Antarhitaha ityadishu. Adhat iti lung lakare prathama purushe ekavachanam. Bhute lung lakaraha. Antar adhat. So like avir bhavati, antar is also a particle which is used along with the dhatu. So antar dadhati means to disappear. Tatah paramaharshena maharshina vidhivad abhyarthitah parameshthi madhyalokepi swavrittam prakashayitum kila bhavantameva upatishthamanayanaya bharatya ramacharitam yathashrutam vyakriyatam iti vyahatya antaradhat. Agrimaha shlokah. Anybody wants to repeat? Sharada Magini. Atha sarasija yonehe.
Atha sarasija yonehe. Atha sarasija yonehe.
Agnyaya rama vrittam.
Agnyaya rama vrittam. Agnyaya rama vrittam.
Karabadara samanam.
Karabadara samanam. Karabadara samanam.
Prekshya drishtya praticya.
Prekshya drishtya praticya. Prekshya drishtya praticya. Praticya.
Shubhamatanutakavyam.
Shubhamatanutakavyam. Shubhamatanutakavyam.
Swadhuramayanakhyam.
Swadhuramayanakhyam. Swadhuramayanakhyam.
Madhumaya phanitinam.
Madhumaya phanitinam. Madhumaya phanitinam.
Margadarshi maharshihi.
Margadarshi maharshihi. Margadarshi maharshihi.
Atha sarasija yone rajnaya rama vrittam.
Atha sarasija yone rajnaya rama vrittam. Atha sarasija yone rajnaya rama vrittam.
Karabadara samanam prekshya drishtya praticya.
Karabadara samanam prekshya drishtya praticya. Karabadara samanam prekshya drishtya praticya.
Shubhamatanutakavyam swadhuramayanakhyam.
Shubhamatanutakavyam swadhuramayanakhyam. Shubhamatanutakavyam swadhuramayanakhyam.
Madhumaya phanitinam margadarshi maharshihe.
Madhumaya phanitinam margadarshi maharshihe. Madhumaya phanitinam margadarshi maharshihe.
Atra Valmikina Ramayanasya pranayanam atra vivranoti bhojaha padachedaha.
Atha sarasija yonehe. ஆக்ஞயா ராமவிருத்தம் கரபதர சமானம் பிரேக்ஷ்ய திருஷ்ட்யா பிரதீச்யா சுபம் அதனுத காவ்யம் ஸ்வாது ராமாயண ஆக்கியம் மதுமய பணிதீனாம் மார்கதர்ஷி மகர்ஷி.
சம்யக். So a very beautiful shloka where Bhoja describes Ramayana and Valmiki. So atha sarasija yonehe ajnaya ramavrittam kara badara samanam prekshya drishtya pratichya shubham atanuta kavyam swadu ramayana akhyam madhumaya பணிதீனாம் மார்க்கதர்ஷி மகர்ஷி. அத இது கனெக்டிங் வர்ட் பவதி. அத ப்ரஹ்மணஹ அந்தர்தானானந்தரம் இத்யர்த்தஹ. ப்ரஹ்மா ஏவம் ஆதிஷ்ய அந்தர்ஹிதஹ ததஹ அதனுத இது க்ரியாபதம். சுபம் அதனுத அதனுத வ்யரச்சயத் ரச்சயாமாஸ இத்யர்த்தஹ. கிம் அதனுத கிம் ரசித்தவான் காவ்யம் கவி பிரபந்தஹ காவ்யம் கவேஹ கர்ம காவ்யம் இது. சோ அ போயம் கி கிரியேட்டட் ஆர் கம்போஸ்ட் அ போயம் காவ்யம். கிம் நாமகம் காவ்யம் காவியஸ்ய நாம கிம் ராமாயணாக்கியம் ராமாயணம் இது ஆக்கியா நாம விக்யாதிஹி யஸ்ய. சோ ராமாயண நாமகம் ஏகம் காவ்யம் அதனுத அதனுத காவ்யம் ராமாயணாக்கியம். கீதிருஷம் தத் காவ்யம் சுபம் அத்யந்தம் மங்களமயம் கல்யாணகரம் கேஷாம் வக்த்ருணாம் ஸ்ரோத்ருணாம் ச யே வதந்தி யே படந்தி யே ஶ்ருண்வந்தி சர்வேஷாமபி மங்களப்ரதம் ஏகம் காவ்யம் சுபம் அதனுத காவ்யம். புனஷ்ச கீதிருஷம் ஸ்வாது அத்யந்தம் ஆஸ்வாதகரம் ஸ்வாது லிட்டரலி மீன்ஸ் வெரி டேஸ்டி. சோ பாடதஹ கானதஷ்ட மதுரம். சோ படாமஹ காயாமஹ ஸ்ருணுமஹ சர்வத்ராபி மாதுரியம் ஸ்ரவதி தாத்ருஷம் காவ்யம் சுபம் அதனுத காவ்யம் ஸ்வாது ராமாயணாக்கியம். கஹ அதனுத தர்ஹி மஹர்ஷிஹி. மஹர்ஷிஹி இது அந்தே அஸ்தி. மஹர்ஷிஹி வால்மீகி. மஹர்ஷிஹி வால்மீகி ராமாயணாக்கியம் சுபம் ஸ்வாது காவ்யம் அதனுத. கீதிருஷஹ மஹர்ஷிஹி இது சேத் மதுமய பணிதீனாம் மார்கதர்ஷி. சோ அ வெரி வெரி ஃபேமஸ் ஃப்ரேஸ் ஃபார் வால்மீகி. ஓகே மதுமய பணிதீனாம் மார்கதர்ஷி மஹர்ஷிஹி. சோ ஹி இஸ் த கைட் ஃபார் த பாத் ஆஃப் போயட்ரி. சோ it's actually if you read the Ramayana at any time it is one of the best poetry. Even though it was the oldest, it is still one of the best. Okay, so nothing can excel the beauty of Valmiki's words. It's such a simple kavya, but still each and every portion is dripping with rasa. Okay, so any portion of this one, that's why he says madhumaya phanitinam margadarshi. மதுமய பணிதீனாம் அமிர்த துல்யானாம் ரசயுக்தானாம் வசனானாம். சோ தட் இஸ் வெரி வெரி ட்ரூ ஆஃப் வால்மீகி. மார்க்கதர்ஷி நாம பதி பிரதர்ஷக. சோ ஹி இஸ் த கைட் சகல கவிகுல குரு. கவிகுல குரு காளிதாச இத்யுச்யதே. இந்த வஸ்துதஹ வால்மீகி ஏவ சர்வேஷாம் கவீனாம் அபி மார்க்கதர்ஷி. தரபி கீதிருஷானி தஸ்ய வசனானி மதுமய பணிதய. சோ ட்ரிப்பிங் வித் ஹனி ஆர் நெக்டர். சோ தாதிருஷானாம் வசனானாம் மார்க்கதர்ஷி மகர்ஷி. மதுமய பணிதீனாம் மார்க்கதர்ஷி மகர்ஷி ராமாயணாக்கியம் சுபம் ஸ்வாது காவ்யம் அதனுத. சோ இட் இஸ் போத் ஸ்வீட் ஆர் நைஸ் டு ஹியர். தேர் இஸ் சம்திங் கால்ட் ஹித அண்ட் பிரிய. Okay, so shreyas and prayas, it is always the dual. So if you like something, it might not be beneficial, say an ice cream or a chocolate. So you like it very much, but it is bad for health. And what is good for health, the shreyas, say lots of vegetables or whatever, so we might not like it very much. So it is the human nature that shreyas and prayas do not go together. But Ramayana is both. It is both Shubham and Swadu. So it is beneficial, leading to the welfare, and also very nice, enjoyable. Shubham Swadu Ubhayam Yatra Bhavati Tadrisham Kavyam Rachitavan Valmikihi. Shubham Atanuta Kavyam Swadu Ramayanakhyam Madhumaya Panitinam Margadarshi Maharshihi. Kena Atanuta iti chet Agnyaya Shasanena. So by the order. Kasya Agnyaya Sarasajayonehe Nama Kamala Sambhavasya Brahmanaha Agnyaya Valmikihi Ramayanam Rachayamasa. So Atha Sarasijayonehe Agnyaya Atanuta iti Anvayaha. Kinkritva Atanuta iti chet Prekshya Drishtva Kim Prekshya Ramavrittam Prekshya Ramavrittam Ramasya Shri Ramasya Charitam Drishtva Katham Drishtavan Kena Prekshya Pratichya Drishtya Yoga Chakshusha. So actually Brahma gives Valmiki the boon that he would be able to see everything that happened in Rama's life. Ramasya Jeevane Yadyat Pravrittam Tat Sarvam Api Tvam Drashtum Shaknoshi Iti Brahmana Eva Uchyate. Ataha Pratichya Drishtya Yoga Chakshusha Ramavrittam Prekshya Ramasya Charitam Saha Drishtva Likhitava. Ateva Ramayane Yallikhitam Tat Sarvam Satyam Eva Brahmanaha Vachana Deva. Kidrisham Prekshya Kara Badara Samanam. So it is not just the outline. So as detailed as a karabadara. So hastasthitena badarapalena tulyam. So there is a fruit which is in your hand. So which means you can examine it from whatever angle and get to know whatever detail you want about it. So tadrisham karabadara samanam nishesham atyantam vivaram sarvani vivarani drishtva ramacharitam prekshya ityartha. Tadrisham prekshya valmikihi rachitavan. So atra brahma kathayati ramayane rahasyancha prakashancha yadvrittam tasya dhimatah ramasya sahasaumitrehe rakshasanam cha sarvashah vaideshyashchaiva yadvrittam Prakasham yadiva rahaha tachapyaviditam sarvam viditam te bhavishyati. So he says very clearly, rahasyam cha prakasham cha, whatever was secret or is well known, yadvrittam tasya dhimataha ramasya. So of Rama, saha saumitrehe, of Lakshmana, rakshasanam cha, even of the demons, vairehyaschaiva, and of Sita. So etesham sarvesham ramayane yani yani patrani tesham sarvesham api prakasham yadiva rahaha. Whether it happened in view of everybody or in ekanta rahaha, when they were alone, tacha pyaviditam sarvam. So whatever is unknown to anybody other than the characters themselves, viditam te bhavishyati, everything will be known to you. So that is what Brahma says to Valmiki. So tatah punah uchyate tatah pashyati dharmatma tatsarvam yogamasthitah purayat tatra nirvrittam pana vamalakam yatha. So a very similar prayoga is found in the Ramayana itself. Panau amalakam yatha, like amalaka. Amalaka is a nellikai, the amla fruit. Badara is a similar fruit, the bear fruit is called the badara. Both of them are similar. It is as if some fruit which is in the hand. Ityartha. So, tatah pashyati dharmatma tatsarvam yogamasthitah purayat tatra nirvrittam pana vamalakam yatha. Ityeva ramayane uchyate. So, samanam bhojarajena uchyate. Karabadara samanam prekshya drishtya pratichya. स्वान्वयः अथ सरसिजयोनेः आज्ञया प्रतीच्या दृष्ट्या रामवृत्तम् करबदरसमानम् प्रेक्ष्य मधुमयफणितीनाम् मार्गदर्शी महर्षिः रामायणाख्यम् शुभम् स्वादुकाव्यम् अतनुत। किम् तात्पर्यम्? ब्रह्मणः आज्ञानुगुणम् योगदृष्टिम् प्राप्य वाल्मीकिः रामचरितम् सर्वमपि हस्तस्थितम् बदरफलम् इव द्रष्टुम् शक्तवान्। एवम् सर्वमपि दृष्ट्वा सः रामायणनामकम् कल्याणप्रदम् मधुरम् काव्यम् विरचय्य स्वस्य मधुरैः वचनैः सर्वेषाम् कवीनाम् मार्गदर्शनम् करोति इत्यर्थः। सो एवम् रामायणस्य प्रणयनम् अनेन श्लोकेन वर्णितम्। सो अतनुत तनुविस्तारे धातुः लङ्लकारे प्रथमपुरुषे एकवचनम् आत्मनेपदे। प्रथमश्लोके अपि अयम् धातुः प्रयुक्तः। लक्ष्मीम् तनोतु विस्तारयतु इत्यर्थः। विस्तरेण उक्तवान् इत्यर्थः अत्र। प्रेक्ष्य प्र उपसर्गः ईक्षदर्शने इति धातुः ल्यबन्तम् अव्ययम्। प्रेक्ष्य सरसिजयोनेः सरसि जायते इति सरसिजम् कमलम् अम्भोजम् कमलम् अब्जम् all of them are kamala and all similar derivations. So sarasi saraha is a lake. Sarasi jayate iti sarasijam kamalam upapara samasaha atrapi aluk samasaha because sarasi iti saptamyantataya shruyate. So sarasijam yonihi utpattisthanam yasya saha sarasija yonihi. So he who was born from the sarasija iti tasya धाताब्जयोनिर्द्रुहिणः विरिञ्चिः कमलासनः इति पुनः अमरकोशे। अब्जयोनिः अब्जम् नाम कमलम्, कमलयोनिः सरसिजयोनिः सर्वमपि ब्रह्मणः पर्यायपदानि। करबदरसमानम्, सो करे बदरम् करबदरम्, सो करस्थितम् बदरफलम् तेन समानम्, करबदरसमानम्। तृतीया तत्पुरुषः। प्रतीच्य, सो प्रतीची इति ईकारान्तस्त्रीलिङ्गः, तस्य तृतीया विभक्तौ एकवचनरूपम्। वस्तुतः प्रतीची इति शब्दः पश्चिमादिक् इत्यर्थे प्रसिद्धः। प्राच्यवाची प्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः इति अमरकोशे। प्राची इत्युक्ते पूर्वादिक्, अवाची इत्युक्ते दक्षिणादिक्, प्रतीची पश्चिमादिक्, एवम् उदीची उत्तरादिक्। सो दिग्वाचकः शब्दः, किन्तु अत्र प्रतीची प्रति अञ्चति नाम अन्तर्मुखम् गच्छति। सो इन्स्टेड् आफ् ट्रावेलिङ्ग् औट्वर्ड् आल् सैट्, द नार्मल् सैट् इस् वाट् विच् केन् सी वाट् इस् औट्, बट् इट् इस् द रिवर्स्, इट् गोस् इन्वर्ड् इत्यर्थे प्रतीची दृष्टिः नाम योगदृष्टिः इत्यर्थः। So, excuse me, just one moment, I'll be back. सारि। एवं प्रतीच्या दृष्ट्या प्रेक्ष्य इत्यर्थः। शुभम् अतनुत काव्यम् स्वादु रामायणाख्यम्, सो रामस्य अयनम् रामायणम् इति अन्वर्थः शब्दः। अयनम् नाम मार्गः इत्यादि। So Ramayanam Akhya Yasya. So that which is called Ramayana Ityarthaha Ramayana Akhyam. Shubham Atanuta Kavyam Swadu Ramayana Akhyam Madhumaya Phanitinam. Madhu Shabdat Mayat Pratyayaha. So we saw that day about Chandomayi. So Chandorupam iti. So atra tadrupye tadhita pratyayaha mayat. So which is the in the format of, which is completely in the form of honey ityarthaha. So madhumaya ityasmat neep pratyayaha madhumayi. So madhumayaha phanitayaha. So phaniti shabdaha atrasti. Keshuchit pustakeshu bhaniti iti diyate vani ityarthaha. Okay. So madhumayaha phanitayaha tesham or tasam phaniti shabdaha strilinge tasam madhumaya phanitinam margadarshi margam darshayati. So he who shows the path. So tatra nini pratyayaha. So he who habitually chose the path. So you have two words. One is margadarshakaha, margadarshi. So margadarshakaha ityukte kevalam margam darshayati. He who shows the path ityarthaha. Margadarshi ityukte margam darshayitum shilam yasya saha. So he who habitually or continuously shows the way for the poets, not just once. Sarvada yaha margam pradarshayati saha margadarshi ityuchyate. So tachilyam iti visheshaha. So habitually doing something rather than just once. So nini iti tadhita krit pratyayaha. So nakaranta shabdaha margadarshi margadarshinav margadarshinaha like guni guninav guninaha nakarantaha pullinga shabdaha prathama vibhakta ekavachanam upapada samasaha. So if you have noticed, the tune changes for this shloka. All the shloka so far, except of course Manishada was in Anushtup, all other shlokas were in Vasanta Tilaka, which is the favorite meter of Bhoja. Now this tune, if you are not familiar with Chandas, the easiest way is to know the tone or the tune in which you tell the shlokas. So this tune, this Atha Sarasija Yone Rajyaya Rama Vrittam Tarabadara Samanam Prekshadrishtya Pratichya Shubhamata Nuta Kavyam Svadu Ramayanakhyam Madhumaya Phanitinam Margadarshi Maharshihe. So Nanama Yaya Yuteyam Malini Bhogi Lokaihi Iti Lakshanam. So if you know the Ganas and all, so there are Nanama Yaya, so five Ganas. So 5 threes, 15 letters in each pada. So this 15 is also split into 8 plus 7. So you can see here, kara badara samanam. 8 at the end of 8 letters there is a small break. So atha sarasija yone ragyaya. So yone he iti chedaha agyaya rama vrittam kara badara samanam prekshadrishtya pratichya. Shubhamatanuta kavyam svadurāmāyanākhyam madhumaya phanitinām margadarshi maharshi. So within the pada there is a break at the after the 8th letter. So that is called the yati. Evam pratipadam panchadasha varnaha bhavanti ete ganaha idam vrittam malini ityuchyate. So athasarasija yone rajyaya rama vrittam karabadara samanam prekshadrishtya pratichya shubhamatanuta kavyam svadurāmāyanākhyam madhumaya phanitinām margadarshi maharshihe. Evam brahma valmikehe purataha agatya chando baddharupena ramayanam rachayitum adishtavan tasya nirgamananantaram yogadrishtya ramacharitam sarvam yatva valmikihi ramayanam iti ekam shubham svadukavyam rachayamasa iti adyatana kathayaha sankshepaha. So any questions you can ask. So there were a few questions earlier. ओके सो रचयामास इति कीदृशः प्रयोगः लिट्लकारः रचयति इत्यस्य लिट्लकारे रचयामास सो च दशमगणस्य धातूनां निजन्तानां तथा भवति चोरयामास गणयामास रचयामास इत्यादि लिट्लकारस्य प्रयोगः सो तत छन्दसः लक्षणे यतिः कुत्र अस्ति भोगी लोकैः भोगी द छन्दस् दे यूज यू नो स्पेसिफिक एंटिटीज फॉर नंबर्स फॉर एग्जांपल इफ यू से वेद इट मीन्स फोर एवं भूत मीन्स फाइव बिकॉज ऑफ पंचभूतानि सो हियर भोगी इज एट भोगी इज अ सर्प सो देर आर एट सर्पेंट्स सो भोगी इज एन इंडिकेटर ऑफ एट एंड लोक सप्त लोकाः इट इज द इंडिकेटर ऑफ सेवन ओके सो द यति इज इंडिकेटेड बाय द भोगी लोकैः एट एंड सेवन एनी अदर क्वेश्चंस सो विल स्टॉप हियर लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखा प्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः